हरि ओ। श्री महालक्ष्मी देवी नमः। श्री लक्ष्मी अष्टोत्तर शतनाम स्तोत्रम्। देव्युवाच देवदेव महादेव प्रकारज्ञ महेश्वर करुणाकर देवेश भक्तानुग्रहकारक अष्टोत्तरशतं लक्ष्म्या श्रोतुमिच्छामि तत्त्वतः। शिवोवाच देवि साधु महाभागे महाभाग्यप्रदायकम् सर्वैश्वर्यकरं पुण्यं सर्वपापप्रणाशनं सर्वदारिद्र्यशमनं श्रवणाद्भुक्तिमुक्तिदं राजवश्यकरं दिव्यं गुह्योर्गुह्यतमं परं दुर्लभं सर्वदेवानां गतुष्षष्ठिकलास्पदं पद्मादीनां वरान्तानां विधीनां नित्यदायकम् समस्तदेव संसेव्य मणिमाद्यष्ट सिद्धिदम् किमत्र बहुनोक्तेन देवी प्रत्यक्षदायकम् तव प्रीत्याद्य वक्ष्यामि समाहितमनाशृणु। अस्य श्रीलक्ष्मीस्तोत्तरशतनामस्तोत्रमहामन्त्रस्य महालक्ष्मी देवता क्लीं बीजम् भुवनेश्वरी शक्तिः श्रीमहालक्ष्मीप्रसादसिद्ध्यर्थे जपे विनियोगः। ध्यानम् वन्दे पद्मकरां प्रसन्नवदनां सौभाग्यदां भाग्यदां हस्ताभ्यामभयप्रदां गणिगणैर्नानाविधा भूषितां भक्ताभीष्टफलप्रदां हरिहर ब्रह्मादिभिः सेवितां पार्श्वे पङ्कजशङ्खपद्मनिधिभिर्युक्तां सदा शक्तिभिः सरसिजनयने सरोजहस्ते धवलतरां सुखगन्धमाल्यशोभे भगवति हरिवल्लभे मनोज्ञे त्रिभुवनभूतिकरि प्रसीद मह्यम्। प्रकृतिं विकृतिं विद्यां सर्वभूतहितप्रदां श्रद्धां विभूतिं सुरभिं नमामि परमात्मिकां वाचां पद्मालयां पद्मां शुचिं स्वाहा स्वधां सुधां धन्यां हिरण्मयीं लक्ष्मीं नित्यपुष्टां विभावरीं अदितिं चदितिं दीप्तां वसुधां वसुधारिणीं नमामि कमलां कान्तां कामाक्षीं क्रोधसंभवां अनुग्रहप्रदां बुद्धिः अनघां हरिवल्लभां अशोकामृतां दीप्तां लोकशोकविनाशिनीं नमामि धर्मनिलयां करुणां लोकमातरम् पद्मप्रियां पद्महस्तां पद्माक्षीं पद्मसुन्दरीं पद्मोद्भवां पद्ममुखीं पद्मनाभप्रियां रमां पद्ममालाधरां देवीं पद्मिनीं पद्मगन्धिनीं पुण्यगन्धां सुप्रसन्नां प्रसादाभिमुखीं प्रभां नमामि चन्द्रवदनां चन्द्रां चन्द्रसहोदरीं चतुर्भुजां चन्द्ररूपां इन्दिरामिन्दुशीतलाम् आह्लादजननीं पुष्टिं शिवां शिवकरीं सतीं विमलां विष्णुजननीं पुष्टिं दारिद्र्यनाशिनीं प्रीतिपुष्करिणीं शान्तां शुक्लमाल्यां वरां श्रियं भास्करीं बिल्वनिलयां वरारोहाम् यशस्विनीम् वसुन्धरामुदाराङ्गाम् हरिणीम् हेममालिनीम् धनधान्यकरी सिद्धिम् शयनसौम्याम् शुभप्रदाम् द्रुपवेश्मगतानन्दाम् वरलक्ष्मीम् वसुप्रदाम् शुभाम् हिरण्यप्राकाराम् समुद्रतनयाम् जयाम् नमामि मङ्गलाम् देवीम् विष्णुवक्षस्थलस्थिताम् विष्णुपत्नीम् प्रसन्नाक्षिम् नारायणसमाश्रिताम् दारिद्र्यध्वंसिनीम् देवीम् सर्वोपद्रववारिणीम् नवदुर्गाम् महाकालीम् ब्रह्मविष्णुशिवात्मिकाम् त्रिकालज्ञानसम्पन्नाम् नमामि भुवनेश्वरीम् लक्ष्मीम् क्षीरसमुद्रराजतनयाम् श्रीरङ्गधामेश्वरीम् दासीभूतसमस्तदेववनिताम् लोकैकदीपाङ्कुराम् श्रीमन्मन्दकटाक्षलब्धविभवद्ब्रह्मेन्द्रगङ्गाधराम् त्वाम् त्रैलोक्यकुटुम्बिनीम् सरसिजाम् वन्दे मुकुन्दप्रियाम् मातर्नमामि कमले कमलायताक्षी श्रीविष्णुहृत्कमलवासिनी विश्वमातः क्षीरोदये कमलकोमलगर्भगौरी लक्ष्मी प्रसीद सततम् नमताम् शरण्ये त्रिकालम् योजपे विद्वान् षण्मासम् विजितेन्द्रियः दारिद्र्यध्वंसनम् कृत्वा सर्वमाप्नोत्ययत्नतः देवी नाम सहस्रेषु पुण्यमष्टोत्तरशतम् येन श्रियमवाप्नोति कोटिजन्मदरिद्रतः भृगुवारे शतम् धीमान् पठेद्वत्सरमात्रकम् अष्टैश्वर्यमवाप्नोति कुबेर इव भूतले दारिद्र्यमोचनम् नाम स्तोत्रमम्बापरम् शतम् येन श्रियमवाप्नोति कोटिजन्मदरिद्रतः भुक्त्वा तु विपुलान् भोगान्त्याः सायुज्यमाप्नुयात् प्रातःकाले पठेन्नित्यम् सर्वदुःखोपशान्तये पठस्तु चिन्तये देवीम् सर्वाभरणभूषिताम् इति श्रीलक्ष्मी अष्टोत्तरशतनामस्तोत्रम्।